एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली निगदति वर्तमान सर्वकार जनतायां स्थितस्य नैराश्यस्य अपसारणत्वेन आशाया उद्भावनत्वेन च कार्यं कुर्वाणोऽस्ति। ह्य प्रतिनिधिसभायां सम्पन्ने प्रश्नोत्तर कार्यक्रमे सांसदानां प्रश्नान् उत्तरयन् प्रधानमन्त्री ओली भ्रष्टाचार नियन्त्रणाय सर्वकारेण कठोरेण कार्यं क्रियते इत्युक्तवान्। तदवसरे प्रधानमन्त्री ओली भ्रष्टाचार जन्यान् गतिविधिन् निर्मूलनकर्तुं शून्य सहनशीलताया नीति अवलम्ब्यते इति प्रतिबद्धतां व्यक्तवान्। सर्वकार संघटनस्य स्वल्पे एव काले देशस्य अर्थतन्त्रे अनुकूल प्रभाव दृष्टोस्तीति चर्चयन् प्रधानमन्त्री ओली अवदत् गतवर्षस्य अपेक्षया अस्मिन् वर्षे आर्थिक वर्ष प्रारम्भस्य एकमासावधावेव राजस्व संकलनं वर्धितमस्ति। प्रतिनिधिसभाया उपवेशे प्रधानमन्त्री ओली आगामिष् दशसु वर्षेष् अष्टाविंशति सहस्र मेगावाट परिमिताधिकाया विद्युत उत्पादनस्य लक्ष्यं गृहीत्वा निर्मिता कार्ययोजना मन्त्री परिषदि प्रस्तुता वर्तते। उत्पादितास् विद्युत्स् त्रयोदश सहस्र मेगावाट मिताया विद्युत प्रयोग नेपाले एव करिष्यते चेत् पञ्चदश सहस्र मेगावाट परिमिताधिकाया विद्युत प्रतिवेशिभ्यां भारताय बंगलादेशाय च विक्रय लक्ष्यं कार्ययोजनायां समाविष्टमस्तीति अज्ञापयत्। उपवेशे सांसदानां प्रश्नान् उत्तरयन् प्रधानमन्त्री ओली संविधान निर्माणस्य पश्चात् अष्टवर्षाणाम् अनुभवस्य आधारेण देशस्य आवश्यकतां विचार्य च संविधानस्य संशोधनं भविष्यति। एतदर्थं सम्पूर्णायाः संसदः सहमतिः अपेक्षते इत्यतः सर्वेषां राजनीतिकदलानां सहमतेव संविधानस्य संशोधनं भविष्यति इति च समस्पष्टयत्। तदवसरे प्रधानमन्त्रिणा ओलिना देशस्य कतिपय भागेष् अविरल वृष्टेः कारणेन दुरापन्नास् विपद्घटनास् जायमानानां क्षतिं न्यूनीकर्तुं संविधानस्य विधेश्च अनुसारेणैव प्रदेश सर्वकारैः स्थानीय सर्वकारैश्च सह समन्वयं कृत्वा कार्यं क्रियमाणमस्तीति च ज्ञापितमस्ति। प्रतिनिधिसभाया ह्यस्तनोपवेशे डाक्टर नारायण खड्का, एनपी साउद, नारायणी शर्मा, नारायण प्रसाद आचार्य, नयनकला थापा, पुष्पबहादुर शाह, नगिना यादव, पशुपति शमशेर जबरा, निर्मला कोइराला, पदम गिरी, निशा डांगी चेती त्रयोदश सांसद प्रधानमन्त्रिणे प्रश्न पृष्ठ आसन्। प्रतिनिधिसभाया ह्यस्तनोपवेशे उपप्रधानार्थमन्त्री विष्णु प्रसाद पौडेल एतद्विक्रमवर्षीयम् आर्थिक कार्यविधि वित्तीयोत्तरदायित्व प्रथम संशोधन विधेयकं न्यास वित्तपत्र सम्बद्धं प्रथम संशोधन विधेयकञ्च प्रस्तौत। उपवेशे सभामुखेन देवराज घिमिरे भिदेन प्रतिनिधिसभा अन्तर्गतानां कतिपय विषयगत संसदीय समितिनां सदस्यानां नामानि परिवर्तितानि सन्तीति ज्ञापितमासीत्। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव भाद्रमासस्य एकादश दिवसे मंगलवासरे दिवा एकवादने वस्ता। राष्ट्रियसभाया ह्यस्तनोपवेशे प्रतिनिधिसभात ससन्देशं प्राप्तम् उनाशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयं विलोपितानां जनानाम् अन्वेषण सत्यनिरूपण मेलायोग सम्बद्धं तृतीय संशोधन विधेयकं सर्वसम्मत्या पारितीकृतमस्ति। उपवेशे विधिन्याय संसदीय विषय मन्त्रिणा अजय कुमार चौरसिया इत्यनेन सभा समक्षं प्रस्तुतस्य प्रस्तावस्य विमर्शने भागं गृह्णन्तः सांसदाः शान्ति प्रक्रियायाः अवशिष्टानि कार्याणि निष्कर्षे प्रापयितुं नेपालं शान्तिपूर्ण वातावरणे प्रापयितुं च राजनीतिक दलानि सफलानि सन्तीति अभाषन्त। विमर्शने नेपाली कांग्रेस दलस्य सांसद कृष्ण प्रसाद सिटौला, नेकपा माओवादी केन्द्रस्य सांसद नारायण काजी श्रेष्ठ, नेकपा एमाले दलस्य सांसद भगवती न्यौपाने, नेकपा एकीकृत समाजवादी दलस्य सांसद डाक्टर बेदुराम भूषाल, सांसद वामदेव गौतम, मोहम्मद खालिद, तुलप्रसाद विश्वकर्माश्च शान्ति प्रक्रियायाः अवशिष्टानि कार्याणि निष्कर्षे प्रापयितुं विधेयकेन भूमिका निर्वक्ष्यते इति अवोचन्। तत्पूर्वं विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया एतद्विक्रमवर्षीयं नेपाल विधि व्यवसाय परिषदः द्वितीय संशोधन विधेयकं सभा समक्षं प्रस्तौत्। राष्ट्रसभायाः अपरोपवेशः अपरोपवेशः रविवासरे दिवा सपादैकवादने वस्ता। सर्वकारेण स्वशपथं टिकटक नामकं सामाजिक सञ्जालं संचालयितुं निर्णीतं वर्तते। मन्त्रिपरिषद स्थनोपवेशेन निर्णयोऽयं विहित इति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ असूचयत्। सर्वै सामाजिक सञ्जालैस्सह समान व्यवहारार्थं आवश्यकानां नियमानां निर्माणार्थं गत श्रावण मासस्य चतुर्विंशे दिवसे संचार मन्त्रिण संचार सचिवस्य नेपाल दूर संचार प्राधिकरण अधिकारिणश्च विमर्शने प्रधानमन्त्रिणा केपी शर्मा ओलिना दत्तं निर्देशम् आधृत्य संचार मन्त्रालयेन प्रस्तावोऽयं निर्मितः आसीत्। टिकटक सामाजिक सञ्जालस्य प्रयोगेण विक्रीतयः वर्धिताः इत्युक्त्वा तात्कालिक सर्वकारेण गतस्य कार्तिक मासस्य सप्तविंशे दिवसे टिकटक सामाजिक सञ्जालः प्रतिबन्धितः आसीत्। परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा निगदति स्वकीयेन भारत भ्रमणेन नेपाल भारतयोः पारस्परिक सद्भावस्याभिवृद्धये उल्लेखनीया भूमिका निर्व्यूढा वर्तते। भारतस्य चतुर्दिवसीयम् औपचारिकं भ्रमणं प्रपूर्य पूर्वेद्युः स्वदेश प्रत्यागमनानन्तरं त्रिभुवनान्तर्राष्ट्रिय विमानस्थले पत्रकारैस्सह भाषमाणा परराष्ट्रमन्त्री डाक्टर राणा भ्रमणेन द्वयोः देशयोः विद्यमानं बहुआयामिकं घनिष्ठं च सम्बन्धं पारस्परिक्याः समानतायाः लाभस्य च आधारेण आधिक्येन सुदृढं विधातुं योगदानं विहितमस्तीति विश्वासं व्यक्तवती। परराष्ट्रमन्त्री डाक्टर राणा भ्रमणेन आगामिषु दिनेषु विभिन्नेषु स्तरेषु सम्पर्कस्य विस्ताराय द्विपक्षीय संयन्त्राणां माध्यमेन पारस्परिक हिताय सहयोगस्य सहकार्यस्य च प्रवर्धनाय च मार्गदर्शनं विहितमस्तीति च अभाषत। तदवसरे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः भारतस्य प्रधानमन्त्रिणं नरेन्द्र मोदिनं नेपालस्य राजकीय भ्रमणस्य निमन्त्रणापत्रमपि समर्पितम् इति परराष्ट्रमन्त्री राणा ज्ञापितवती। भारतदेशस्य विदेशमन्त्रिणः एस जयशंकरस्य निमन्त्रणायां गत रविवासरे नवदेहलीं प्राप्तायाः परराष्ट्रमन्त्रिणः डाक्टर आरजू राणा इत्यस्याः भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदिना विदेशमन्त्रिणा एस जयशंकरेण च सह मिलवार्ता सम्भूता आसीत्। सर्वकारेण पोखरा क्षेत्रीयान्तर्राष्ट्रिय विमानस्थलस्य निर्माणाय गृहीतं ऋणं अनुदान सहयोगे परिवर्तयितुं चीनदेशीय पक्षः अनुरुद्धो वर्तते। अर्थ मन्त्रालये ह्य आयोजिते कार्यक्रमे ऋणम् अनुदान सहयोगे परिवर्तयितुं विहितस्य चीनदेशीय पक्षस्य पत्रम् अर्थमन्त्रालयान्तर्गताया अन्तर्राष्ट्रियार्थिक सहायता समन्वय महाशाखायाः प्रमुखः धनीराम शर्मा चीन देशीयान्तर्राष्ट्रिय विकास सहयोग निकायस्य उपाध्यक्षाय याङ वेकुन इत्यस्मै प्रादात्। पत्रस्य हस्तान्तरणस्य पूर्वम् उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः चीनदेशः नेपालस्य समीचीन प्रतिवेशी राष्ट्रं वर्तते इत्यतः नेपालस्य अर्थतन्त्रस्य अवस्थां विशेषेण विचार्य पोखरा क्षेत्रीयान्तर्राष्ट्रिय विमानस्थलस्य निर्माणाय गृहीतं ऋणम् अनुदान सहयोगे परिवर्तयितुं चीनदेशीय पक्षम् अनुरुद्धवान् आसीत्। उपप्रधानार्थमन्त्री पौडेलः नेपाल सर्वकारेण विहितः अनुरोधः चीनदेशीय पक्षेण प्रपूरयिष्यते इति विश्वासं व्यक्तवान्। पोखरा क्षेत्रीयान्तर्राष्ट्रिय विमानस्थलस्य निर्माणाय नेपाल सर्वकारेण चीनदेशीयात् एक्जिम कोषागारात् आसन्न पञ्चविंशतेः अब्जानाम् अष्टाशीतेः कोटिनाञ्च रूप्यकाणां ऋण सहयोगस्य स्वीकाराय संविदा विहितासीत्।